ప్రతిగుం హవామహి కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణా బ్రహ్మణస్పత ఆన శృణ్వన్నోతిభిః సేద సాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతీ ధీనామవిత్రయవతు గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వని బాహుభ్యాముతతే నమః యాతరిష శివతమా శివం వభూవతే ధనుః శివాశరవ్యాయ తవతయానోరుద్రమృడయా యాతే రుద్ర శివా తనూర ఘోరా పాపకాశిని తయానస్తను వాశంతమయా గిరిశంతా విచాకషీ యామిషుం గిరిశంతహస్తే విభర్ష్యస్తవే శివాంగిరిత్రతాం కురుమాహి గుంసీః పురుషం జగత్ శివేన వచసా త్వాంగిరిషా చావదామసి యథా నః సర్వమి జగత యక్ష్మగుం సుమనా అసత్ అధ్యవోచదధివక్తా ప్రథమో దైవ్యోభిషక్ అయీగుశ్చ సర్వాన్ జంవయన్ సర్వాశ్చ యాతు ధాన్యః అసౌ యస్తామ్రో అరుణ ఉత వభ్రస్వ మంగళః యే చేమాగుం రుద్రా అవితో దిక్షుశ్రుతా సహస్రశో వైశాగుం హేడయీమహే అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉదైనం గోపా అదృశన్ అదృశన్ ఉదహార్యః ఉదైనం విశ్వభూతాని సదృష్టో మృడయాతినః నమో అస్తు నీల దేవాయ సహస్రాక్షాయ మీడుషే అథో యే అస్య సత్వాలోహం తేభ్యో కరన్నమః ప్రముంచ ధన్వనస్త్వముభయోరార్ణ్యయోర్జా యాశ్చ తే హస్త ఇషవ పరాత భగవో వప అవతత్య ధనుస్త్వగుం సహస్రాక్షశతే సుధే నిశీర్య శల్యాణాం ముఖా శివో న సుమనా భవ వీర్యం ధను కపర్దినో విశల్యో బాణవాగుం ఉతాం అనేషన్నశేషవ ఆవురస్య నిషంగతిః యాతే హేతిర్మీఢుష్టమహస్తి మభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయ పరిభ్రుజా నమస్తే అస్త్వాయుధాయ నాతతాయ దృష్టవే భవాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ మృణక్తు విశ్వతః అథో య ఇషు నిస్తవారి అస్మన్నిధేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః నమో హిరణ్యవాహవే సేనాన్యే దిశా చ పతయే నమో నమో వృక్షేభ్యో हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय त्रिषीमते पतीनाम् पतये नमो नमो भग्लुषाय विव्याधिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय दताविने क्षेत्राणाम् पतये नमो नमः श्रोताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्तवतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भवन्तये वारिवस्कृताय औषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमति तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमस्तु काविभ्यो निगागुंसद्योमुष्णताम् पतये नमो नमो श्रीमद्भ्यो न कञ्चरभ्य प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्योधन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यन्यो निद्यभ्यश्च वो नमो नम आसीनेभ्यश्चयानेभ्यश्च वो नमो नमः स्वपन्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यः त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुण्यष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमः श्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कवर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीनुष्टमाय चेशुमते च नमो हस्ताय च वामनाय च नमो हृते च वर्षीयसे च नमो वृद्धाय च समृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शेक्रियाय च शेभ्याय च नमः नूर्म्याय च वत्सन्याय च नमः श्रोतस्याय च नेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय चापगल्भाय च नमो जगन्याय च बुद्ध्याय च नमः शोभ्याय च प्रतिसर्याय च नमो याम्याय च हेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शौराय चावविन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो नव्याय चाहनन्याय च नमो नष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेशुधिमते च नमस्तीक्ष्णेशवे च युधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नेप्याय च नमः सोऽध्याय च सरस्याय च नमो नाध्याय च वैषन्ताय च नमः कौप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ऐद्रियाय चातप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कुर्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः शस्प्याय च वेन्याय च नमः सिकत्याय च प्रवाह्याय च नमः हिरण्याय च प्रवत्याय च नमः हिगुंशिलाय च क्षयणाय च नमः कवर्दिने च बुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च वर्णशद्याय च नमो अङ्गुरमाणाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो नेवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वक्येभ्यो नमः आनिर्हतेभ्यो नमः आमीवक्येभ्यः द्रापे अन्धसस्पते दरिद्रनीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्च नाम मत् या ते रुद्रशिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कवर्णिने शयद्वीराय प्रवरामहे मतिम् यथा नश्यमसन्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रोतनोमयस्कृति क्षयद्वीराय नमसा विधेमते यच्छञ्च योश्च मनुरायजे पिता ददश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः मेरान् मानो रुद्रवामितो वदेर्हविष्मन्तो नमसा विधेमते आरात्ते गोग्न उत वोरुषग्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अरिच देव ब्रूह्यथा च न शर्म यच्च द्विवराः सुविश्रुतम् गत्तसरम् युवानम् मृगन्न भीममुपहत्नमुग्रम् मृणाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य रेत् वृणत्व परि वेषस्य दुर्मतिरधायोः अवस्थिरा मगवद्यस्तनश्वमेढ्वस्तोकायतनयाय मृणया मेढुष्टम शिवतम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसा न आचर पिनाकम् विभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचेनामुखाकृते सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषागुम् सहस्रयो जने वदन्वानि तन्वसे अस्मिन्महत्यर्णवे एन्तरिक्षे भव अधि नैरग्रेवा श्रुतिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवा श्रुतिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकास वर्धिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पथाम् अनिरक्षय ऐलमृदायव्युधः ये तीर्थानि प्रचरन्ति शुकावन्तो निषङ्गिणः యేతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్తిరే తేషాగుం సహస్రయోజనే వదన్వాని తన్మసే. నమో రుద్రేభ్యో యే పృథివ్యాం ఏంతరిక్షే యే దివ్యేషామన్నం మాతో వర్షమిషవస్తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రదేశేర్దశోదేశేర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయంతు తేయం ద్విష్మో యశ్చ నో ద్వేష్టితం భోజం భేదధామి. త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షీయమామృతాత్. యో రుద్రో అగ్నవ్యో అప్సుయ ఓషధేషు యో రుద్రో విశ్వ భువనా వివేషదస్మై రుద్రాయ నమో అస్తు. ఏతే సహస్రమయుతం పాశా మృత్యోర్మర్త్యాయ హంతవే. తాన్యజ్ఞస్య మాయయా సర్వానవయజామహే. మృత్యవే స్వాహా మృత్యవే స్వాహా. ప్రాణానాం గ్రంథిరతిరుద్రమానిశాంతకః తేనాన్యేనా ప్యాయ స్వా. నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాయి. తముష్టుయస్విషుసుధన్వాయు విశ్వస్య క్షయదివేషజస్య యక్ష్వా మయేసౌ మనసాయ రుద్రం నమో. భిర్దేవమసురంధువస్య అయం మే హస్తో భగవాన్. అయం మే భగవత్తరః. అయం మే విశ్వమేష యోయగు శివాభివర్షణః. ఓం శాంతి శాంతి శాంతిః. ఓం శంచ మే మయశ్చ మే ప్రియంచ మేను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రంచ మే శ్రేయశ్చ మే భస్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణంచ మే యంతాచ మే దత్తాచ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వంచ మే మహశ్చ మే సంవిశ్చ మే జ్ఞాత్రంచ మే సోశ్చ మే ప్రచోశ్చ మే శీరంచ మే లయశ్చ మరుతంచ మే మృతంచ మే యక్ష్మంచ మే నామయశ్చ మే దేవాతుశ్చ మే దీర్ఘాయుత్వంచ మే నమిత్రంచ మే భయంచ మే సుగంచ మే శయనంచ మే సోషాచ మే సుదినంచ మే. శాంతి శాంతి శాంతి. ఓం అగ్నినాత్వాగ్నిమే హన్మే కణ్వేన జమదగ్నినా విశ్వావసోర్బ్రహ్మణా హతః క్రిమేణాగుం రాజా. అప్యేషాగుస్తపతిర్హతః అథో మాతా అథో పితా అథో స్థూరా అథో క్షుద్రా అథో కృష్ణా అథో శ్వేతా అథో ఆశాతికా హతా శ్వేతాభిః సహ సర్వే హతా. ఆహరావద్యా శ్రుతస్య హవిషు యథా తత్ సత్యం యదముయ్యమస్య జంభయో ఆదధామి తథా హి తత్ ఖణ్ఫణ్మృతే. ఓం శాంతి శాంతి శాంతి. ఓం तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु वेशजम् शन्नो अस्तुर्निपदे शं चतुष्पदे ॐ शान्ति 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 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यधिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्छभव्यम् उतामृतत्वस्येषानः यदन्येन तिरोहते एतावानस्य महिमा अथोऽध्यायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वमुदये पुरुषः पादोऽस्येह भवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अवे तस्माड्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिक्षत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्य सेदाज्यम् ग्रीष्म इन्द्वः शरद्रविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अवध्नन् पुरुषम् पशुम् तैयज्ञम् परिणिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यानुषयश्च ये तस्माद्यज्ञात् सर्वभूतः समृतम् प्रसदाज्यम् पशोगस्तागुश्चक्रेवायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः रजःसामानि जङ्गिरे छन्दागुंसि जङ्गिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावो अजङ्गिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् यदधुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यः कृतः भूरु तदस्य यत्वैष्यः हद्भ्यागुक्षोद्र अजायत चन्द्रमा मनसो जातः चक्षु सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यो समवर्तत हद्भ्याम् भूमिर्निश श्रोत्रात् तथा लोकाभ्यम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आनित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते नाता पुरस्ताद्यमुदा जहार चक्र प्रविद्वान् प्रदिशश्च दस्रः तमेवम् विद्वान् अमृत इह भवते नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्यः सम्भूतः पृथिव्यैरचाश्च विश्वकर्मणः समवर्ततानि तस्य त्वष्टा विदधत्र उपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्ताद् तमेवम् विद्वानमृत इह भवते नान्यः पन्था विद्यते अनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य देहा मरिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतमते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋचाय ब्राह्मणे ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे हेश्च ते लक्ष्मीश्च पत्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनो व्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञवतरे दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ भद्रम् कर्णे विश्रणयाम देवा भद्रम् पश्ये माक्षवीर्यजत्राः स्नेरैरङ्गैस्तवागुप्सस्तनोभिः व्यसेम देवयितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् तत्त्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् धर्तासि त्वमेव केवलम् हर्तासि त्वमेव सर्वम् खल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् कृतम् वच्मि सत्यम् वच्मि अवत्वम् माम् अववक्तारम् अवश्रोतारम् अवधातारम् अवधातारम् अवालोचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणातात् अवचोर्ध्वातात् अवाधरातात् सर्वतो मां पाहि पाहि समन्तात् तं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाग्निति योऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं तत्त्वो जायते सर्वं जगदिदं तत्तस्तिष्ठति सर्वं जगदिदं त्वयि लयमेष्यते सर्वं जगदिदं त्वयि प्रत्येते त्वं भूमिरापो नलो निलो नभः त्वं चत्वारि वाग्मदानि त्वं गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यम् त्वं शक्तित्रयात्मकः त्वां योगिनो ध्यायन्ति नित्यम् त्वं ब्रह्मास्त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवस्तु वरोम् गणादिं पूर्वमुच्चाय वर्णादीं सदनन्तरम् अनुस्वार परतरः अनन्देन्दुरसितं तारेण रुद्धम् एतत्तवमनुस्वरूपम् गकारपूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादसन्धानम् सगुंहिता सन्धिः सैषा गणेश विद्या गणकर्षिः गायत्री छन्दः गणपतिर्देवता ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् एकदन्तं चतुर्हस्तं पाशमं कुशधारिणं रणं च वरदं हस्तैर्विप्राणं मूषकध्वजं रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससं रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पै सुपूजितं भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् आविर्भूतं च सृष्ट्यादो प्रकृते पुरुषात् परम् एवं ध्यायति यो नित्यं स योगी योगिनां वरः नमो व्रातपतये नमो गणपतये नमः प्रमदपतये नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः एतदथर्वशीर्षं यो धीते स ब्रह्म भूयाय कल्पते स सर्वविघ्नेर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमः पापात् प्रमुच्यते सायमधीयानु दिवसकृतं पापं नाशयति प्रातरधीयानु रात्रिकृतं पापं नाशयति सायं प्रातः प्रयुञ्जानु पापो पापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षं च विन्दते इदमथर्वशीर्षमशिष्याय मधेयम् यो यदि मोहाद्दास्यति स वापेयान् भवति सहस्रावर्तनाद्यम्यं काममधीते तं तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति तवाग्नी भवति चतुश्चामनस्य जपति स विद्यावान् भवति नित्यथर्वणवाक्यम् ब्रह्माद्यावरणम् विद्या न विभेति कदाचनेति यो दुर्वाक्करैर्यजति स श्रवणोपमो भवति यो राजैर्यजति स यशोवान् भवति स मेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः सार्ध्यसमृद्धिः यजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणान् सम्यक् ग्राहयित्वा सौर्यवर्चस्वे भवति सौर्यग्रहे महानद्याम् प्रतिमा सन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति एवम् वेदा नित्युपनिषत् हद्रम् कर्णे विश्रणयामदेवा हद्रम् पश्ये माक्ष्यभिर्यजत्रा शैरैरङ्गैः सष्टवागु सस्तनो मे व्यशेम देवहितम् यदायो स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः सर्वविद्यानाम् ईश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्म शिवो मे अस्तु सदा शिवो तद्विष्णो परमम् पदगुम् सदा पश्यन्ति सूरयः देव चक्षुराततम् तद्विप्रासो विपन्यभोजाग्रवागु सस्यविन्दति विष्णोर्यः परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्व प्रचोदयात् हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महेमहेशाः नो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति।